निदान प्रियमिष्टदेवं नमामि सोमेश्वरं स्वतन्त्रं उमापतिं तं विजयं नमामि नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं दक्षिरसा नमामि नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि नमामि गङ्गाधरमीशमीडम् उमाधगं देववरं नमामि
नमाम्यजादीशपुरन्दरादिसुरासुरैरचितपा